नमस्कारः किरार्ताजुनीयस्य चतुर्विंशः श्लोकः कथाप्रसङ्गेन जनैरुदाहृतात् अनुस्मृता खण्डलसूनुविक्रमः तवाभिधानाद्यथ तेन ताननः सुदुस्सहात्मन्त्रपदात्तिवोरगः कथाप्रसङ्गेन जनैः उदाहृतात् अनुस्मृत आखण्डलसूनुविक्रमः तव अभिधानात् व्यथते नताननः सुदुस्सहात् मन्त्रपदात् इव उरगः इति श्लोकस्य पदविभागः. पूर्वस्मिन् श्लोके अपि एषः वनेचरः युधिष्ठिरस्य उत्साहवर्धात्मकं विश्वास उत्पादात्मकं वचः उक्तवान् आसीत्, वक्तुम् आरब्धवान् आसीत्. त्रिषु श्लोकेषु तस्य वनेचरस्य उक्तिः समाप्यते. यद् विषयं वक्तुम् इष्टवान् तद् इतोपि एकः एव श्लोकः अस्ति, श्लोकः स्यात् इति मन्ये. तत्र समाप्यते, आम्, पञ्चविंशतिश्लोके तस्य समाप्तिः, वनेचरस्य वचनस्य समाप्तिः. अहो बलवद्विरोधितापि धुरन्ता, बलवद्भिः वैरं विरोधि विरोधभावना अस्ति चेत् तस्य अन्तं तु दुस्सहं भवति, दुरन्तं भवति तस्य इति उक्तवान् आसीत् पूर्वम्. इदानीं तु अस्मिन् श्लोके वदति सः कियत् कीदृशं भयम् अनुभवति दुर्योधनः, भवतः नाम श्रवणे अपि सः बहु भयम् अनुभवति इति वदति. यदा कश्चित् सर्पः मन्त्रं श्रुत्वा गरुडस्य स्मरणं करोति तथा एषः दुर्योधनः कदाचित् जनाः कथाप्रसङ्गेन इति वदति, यथा परस्परं सम्भाषणं कुर्वन्तः भवन्ति अन्येषु विषयेषु, तस्मिन् सन्दर्भे अपि यदा युधिष्ठिरः इति नाम्नः प्रयोगः क्रियते तस्मिन् समये सः अर्जुनस्य पराक्रमं सर्वं श्रुत्वा नताननः बहु भयम् अनुभवति इति वदति. यद्यपि दुर्योधनः अतिसमीचीनतया शासनं कुर्वन् अस्ति तथापि तव नाम श्रवणेन भयम् अनुभवति इति वदति वनेचरः. एतेन युधिष्ठिरस्य विश्वासः महान् भविष्यति इति, महान् विश्वासः आगच्छति तस्य इति कारणात्. कथाप्रसङ्गेन गोष्ठीवचनेन जनाः यदा परस्परं भाषमाणाः भवन्ति तस्मिन् सन्दर्भे इति अर्थः. गोष्ठीवचनेन जनैः उदाहृतात्, जनैः उक्तत्वात्, उदाहरणरूपेण प्रयोगं कृतात्, उच्चारितात् इति अस्ति. तव अभिधानात्, तव इति युधिष्ठिरस्य अभिधानम्, अभिधानम् इत्युक्ते नाम इति अर्थः. उदाहरात् युधिष्ठिरस्य अभिधानात् सः दुर्योधनः कीदृशः अस्ति, नताननः व्यथते, नत नतम् आननं यस्य सः, सः नत आननः, नतः नाम अधोमुखं कृत्वा, अधोमुखः सन् सः व्यथते, व्यथते इत्युक्ते कष्टम् अनुभवति, दुःखम् अनुभवति इति अर्थः. कीदृशः दुर्योधनः, क्षम्यतां, कीदृशः दुर्योधनः इत्युक्ते अनुस्मृत आखण्डलसूनुः. यदा यदा तव अभिधानम् उच्चार्यते जनैः, तव नाम जनैः गोष्ठीप्रसङ्गसमये उच्चार्यते तदा अनुस्मृत आखण्डलसूनुविक्रमः. अनुस्मृतः नाम स्मरणे आगतः. कः स्मरणे आगतः दुर्योधनस्य स्मरणे इत्युक्ते आखण्डलसूनुविक्रमः. आखण्डलः इति इन्द्रस्य नामान्तरम्. आखण्डलः इन्द्रः, सूनुः पुत्रः. इन्द्रस्य पुत्रः कः? अर्जुनः. अर्जुनस्य पराक्रमः तस्य स्मरणे आगतः. अतः प्राप्त इन्द्रस्य, इन्द्रपुत्रस्य विक्रमस्य स्मरणं, तादृशः दुर्योधनः. अर्जुनस्य स्मरणम् आगतं तस्य. तादृशः अनुस्मृत आखण्डलसूनुविक्रमः स्मृत अनुस्मृतद्वयमपि समानमर्थं बोधयति. स्मृत अनुस्मृत आखण्डलसूनुविक्रमः नथाननः सन् सः यथते दुःखम् अनुभवति. इति सामान्यः अर्थः, सामान्यः श्लोकः, कष्टमेव वर्तते. किन्तु एकैकस्मिन् पदे अपि श्लेषेण इतोपि एकः अर्थः प्राप्यते. सर्पः यथा पूर्वमेव श्लोकस्य अर्थः यदा संक्षेपेण उक्तः, सर्पः यथा गरुडस्य मन्त्रपदात् गरुडस्य स्मरणं करोति तथा एषः जनैः उदाहृतत्वात् अर्जुनस्य स्मरणं करोति इति अर्थः. समानः श्लोकः सर्पपक्षे कथम् अर्थः भवति इति पश्यामः. कथाप्रसङ्गेन, कथाप्रसङ्ग इत्युक्ते विषवैद्यः इति विश्वकोशः. कथाप्रसङ्ग इति पदस्य विषवैद्यः इति अर्थः अस्ति. इन इन इति पदस्य श्रेष्ठः इति अर्थः अस्ति. कथाप्रसङ्गे इनाः च ते जनाः, तैः इति स्वीकरणीयं. कथाप्रसङ्गसमये नाम कथाप्रसङ्गे नाम विषवैद्यः. कथाप्रसङ्गेन जनैः इति एकपदत्वेन स्वीकरणीयं. कथाप्रसङ्ग इत्युक्ते विषवैद्यः, इन इत्युक्ते श्रेष्ठः जनः, कथा विषवैद्यश्रेष्ठजनैः इति एकेन पदेन परिगण्यते कथाप्रसङ्गेन जनैः इति. यदा सर्पस्य पक्षे वदामः श्लेषेण, दुर्योधनपक्षे कथाप्रसङ्गेन जनैः इति पदद्वयम्. अत्र कथाप्रसङ्गेन जनैः इति कथाप्रसङ्ग इनजनैः विषवैद्यश्रेष्ठजनैः श्रेष्ठलोकैः. उदाहृतात् तव अभिधानात्, तव इत्युक्ते दुर्योधनपक्षे भवतः नाम्नः इति अर्थे, भवतः नाम उच्चारणात् इति अर्थः दुर्योधनपक्षे. अत्र सर्पपक्षे तव इत्युक्ते त च व च तव इति तश्च वश्च तवौ इति उच्यते. तव अभिधानात्, तवोः अभिधानात् नाम तार्क्ष्यवासुक्योः अभिधानात् इति स्वीकरणीयम्. तार्क्ष्य इति सर्पविशेषः, वासुकी इत्यपि सर्पविशेषः. एवम् एतयोः सर्पयोः नाम उच्चारणात् एवं विषवैद्यश्रेष्ठजनैः यदा तव अभिधानात् तार्क्ष्यवासुकी इति नाम्नः उच्चारणात् उच्चारणात् मन्त्रपदात् यदा ते मन्त्र उच्चारणसमये तव इति पदस्य प्रयोगं कुर्वन्ति तदा तार्क्ष्यवासुक्योः स्मरणमागच्छति कस्यचित् सर्पस्य. कारणम् एतेन मन्त्रबलेन तार्क्ष्यवासुकी इत्यादि श्रेष्ठसर्पः अपि भयम् अनुभूय बद्धः भविष्यति. तावत् मन्त्रबलम् अस्ति. तार्क्ष्यवासुक्यादयः श्रेष्ठाः अपि सर्पाः बद्धाः भवन्ति. सामान्यसर्पस्य तु का गतिः? इत्यतः तव अभिधानात् कीदृशः भयं, कीदृशः सन् सः सर्पः भयम् अनुभवति इत्युक्ते अनुस्मृत आखण्डलसूनुविक्रमः. यदा दुर्योधनपक्षे वदामः तदा इन्द्रस्य पुत्रः अर्जुनः तस्य अनुस्मरणं, तस्य अर्जुनस्य विक्रमस्य स्मरणम् आगच्छति दुर्योधनस्य इति दुर्योधनपक्षे अर्थः. सर्पपक्षे तु अनुस्मृत आखण्डलसूनु इति पदस्य अनुजः इति अपि एकार्थः अस्ति. पुत्रः इति एकार्थः, अनुजः इत्यपि एकार्थः. अनुस्मृतः आखण्डलस्य सूनुः, इन्द्रस्य अनुजः कः? उपेन्द्रः, विष्णुः. इन्द्रस्य अनुजः उपेन्द्रः. अनन्तरं विक्रमः इति पदे वि इति पदस्य पक्षी इति अर्थः. इन्द्रस्य अनुजः विष्णुः, विष्णोः वि, विहि पक्षी, विष्णोः पक्षी कः? गरुडः. वि तस्य क्रमः, क्रमः क्रमुपादविक्षेपे इति श्लोकः अस्ति. क्रमः इत्युक्ते पादः, पादविक्षेपः, पादन्यासः इति अर्थः. गरुडस्य पादविक्षेपस्य स्मरणम् आगच्छति. विष्णोः पक्षी गरुडः, तदेव आखण्डलः इन्द्रः, आखण्डलसूनुः इन्द्रस्य अनुजः विष्णुः, आखण्डलसूनोः वि पक्षी, तत् गरुडः, विष्णोः पक्षी गरुडः, गरुडस्य पादः, तस्य स्मरणम् आगच्छति. कारणं गरुडः तस्य पादं सर्पस्य उपरि निक्षिप्य एव सर्पस्य दमनं करोति. अतः सर्पस्य गरुडस्य पादविक्षेपस्य स्मरणम् आगच्छति तस्य. अतः नतारणः, नतारणः सन् व्यथते सः यथा सर्पः. एवं तार्क्ष्यवासुक्योः अभिधानात् गरुडस्य स्मरणेन, विष्णोः वाहनं गरुडः, गरुडस्य पादविक्षेपस्मरणेन, पादन्यासस्मरणेन स्मरणमागत्य नतारणः, नथम् आननं यस्य सः. एवम् अधोमुखः सन् यथा सर्पः दुःखम् अनुभवति तथा एषः दुर्योधनः अपि दुःखम् अनुभूतवान् इति. मन्त्रपदात् इति पदस्य एकं विशेषणमस्ति दुःसहात् स पञ्चमी विभक्ति कारणं हेतौ पञ्चमी इति सूत्रेण एतत् कारणं वक्तुं पञ्चमी विभक्तिप्रयोगः. उदाहृतात् अभिधानात् सुदुस्सहात् मन्त्रपदात् इति. पुनः एकवारं अत्र उरगः इति पदं सर्पं सूचयति. उरसा गच्छति इति उरगः सर्पः. कथाप्रसङ्गेन जनैः इति पदद्वयं दुर्योधनपक्षे यदा अर्थं स्वीकुर्मः. प्रसङ्गकथा गोष्ठीवचनेन जनैः प्रजाभिः इति दुर्योधनपक्षे. उरगपक्षे सर्पपक्षे तु कथाप्रसङ्गेन जनैः इति विषवैद्यश्रेष्ठलोकैः इति. उदाहृतात् तव अभिधानात् अत्र दुर्योधनपक्षे युधिष्ठिरस्य अभिधानात् युधिष्ठिरस्य नाम्नः. अत्र तार्क्ष्यवासुक्योः नाम्नः इति सर्पपक्षे. सुदुस्सहात् मन्त्रपदात् नाम सोढुं सुदुस्सहः नाम सोढुम् अशक्यः मन्त्रः अस्ति. सोढुम् अशक्यात् मन्त्रपदात् मन्त्र उच्चारणात् उरगः इव सर्पः. सर्पः उरगः नथाननः यथा भवति तथा दुर्योधनः अपि नथाननः अभूत्. कीदृशः उरगः? अनुस्मृत आखण्डलसूनुविक्रमः. अनुस्मृतः आखण्डलसूनु इन्द्रस्य अनुजः उपेन्द्रः वामन अवतारे. तस्य विहि पक्षी गरुडः, गरुडस्य पादः, तस्य स्मरणम् आगतं सर्पस्य. अतः नथाननः अधोमुखः सन् भयम् अनुभवति. दुर्योधनपक्षे आखण्डलसूनुविक्रमः अर्जुनस्य स्मरणम्, अर्जुनस्य विक्रमस्य स्मरणम् आगतं दुर्योधनस्य. अतः नथाननः जातः दुर्योधनः. नथाननः सन् सः व्यथते इति, भयम् अनुभवति, दुःखम् अनुभवति इति. भावार्थमेवं भवति, प्रभो गोष्ठीषु वा अन्यत्र वा जनाः यदा भवतां नाम उच्चरन्ति तदा दुर्योधनः अर्जुनस्य पराक्रमं स्मृत्वा भीतभीतः दृश्यते. गरुडमन्त्रश्रवणेन यथा उरगः बिभेति तथा असौ अपि बिभेति. असौ इति दुर्योधनः अपि बिभेति, भयम् अनुभवति इति. अस्मिन् श्लोके श्लेष अलङ्कारः उपमा अपि. अग्रे गच्छामः. पञ्चविंशः श्लोकः. तदा शुकर्तुं त्वयि जिह्ममुद्यते विधीयतां तत्र विधेयमुत्तरं परप्रणीतानिव चांसि चिन्वतां प्रवृत्तिसाराः खलु मादृशां गिरः. तद् आशु कर्तुं त्वयि जिह्मम् उद्यते विधीयतां तत्र विधेयम् उत्तरं परप्रणीतानि वचांसि चिन्वतां प्रवृत्तिसाराः खलु मादृशां गिरः. इदानीं मनेश्वरः, मनेश्वरस्य अन्तिमः श्लोकः. अतः एतावता मया उक्तं दुर्योधनस्य विषये, इदानीं शीघ्रं यावत् शीघ्रं किं कर्तव्यम् इति मनसि चिन्तयति तत्सर्वं करोतु इति युधिष्ठिरं वदति मनेश्वरः. कारणं मया उक्तानि वचांसि वचनानि सर्वाणि अपि सङ्गृहीतानि जनेभ्यः सङ्गृहीतानि वचनानि एव केवलं तैः कार्यं कर्तुं किमपि प्रयोजनं न भवति एतैः वचोभिः किमपि कार्यं कर्तुं मया न शक्यते केवलं सङ्गृहीतानि वचांसि मया उक्तानि तावदेव तावदेव अहं कर्तुं शक्नोमि कार्यं विधातुम् अहं समर्थः न अस्मि तत्र भवताम् एव दायित्वम् इति वदति परप्रणीतानि वचांसि परैः प्रणीतानि अन्यैः उक्तानि वचांसि वचनानि चिन्वतां सङ्ग्रहणं कुर्वतां चिन्वताम् इति शत्रुप्रत्ययः षष्टिविभक्तिः बहुवचनं चिनोति चिनुतः चिन्वन्ति इति भवति किल चिन्वन् चिन्वन्तौ चिन्वन्तः इति क्रियते चेत् षष्टि बहुवचनं चिन्वतां सङ्ग्रहणं कुर्वतां मादृशानां गिरः मत्सदृशजनानां गिरः वचांसि शब्दाः गीहि गिरौ गिरः इति प्रथमाविभक्तिः बहुवचनं कीदृशाः गिरः इत्युक्ते प्रवृत्तिसाराः खलु प्रवृत्ति इत्युक्ते उदन्तं कथा प्रवृत्ति वार्ता इति अर्थः केवलं वार्तामात्रसाराः भवन्ति अहं केवलं वार्तामेव श्रावितवान् तत्र गत्वा विषयान् सङ्गृह्य भवन्तं केवलं तां वार्तां श्रावितवान् अस्मि आक्षन् कर्तुम् अहं समर्थः न भवामि तद् भवतामेव सामर्थ्यमस्ति अतः यत् कर्तुं निश्चयं करोति तद् आशु विधीयतां यथाशक्ति शीघ्रं क्रियताम् इति वदति तत् तस्मात् त्वयि जिह्मं कर्तुम् उद्यते तत्र त्वयि नाम भवति युधिष्ठिरे जिह्मं कर्तुं कपटम् आचरितुं कपटं विधातुम् उद्यते तत्र उद्यतः अस्ति दुर्योधनः नाम युधिष्ठिरादिषु दुर्योधनः कपटम् आचरितुम् उद्युक्तः अस्ति तस्मिन् उद्यते इति दुर्योधनं सूचयति उद्यते तत्र उद्यतः नाम प्रयत्नं कुर्वन् अस्ति तस्मिन् दुर्योधने विधेयम् उत्तरम् आशु विधीयताम् विधातुं योग्यं विधेयम् विधातुम् इत्युक्ते कर्तुं योग्यं कार्यम् उत्तरम् आशु विधीयताम् शीघ्रं क्रियताम् यावत् शक्यं शीघ्रं क्रियताम् इति उत्तरम् इति पदस्य अत्र प्रतिक्रिया इति अर्थः स्वीकरणीयः कौण्टर् आक्षन् इति रिवेञ्ज् कौण्टर् आक्षन् शीघ्रं क्रियतां विध योग्यां प्रतिक्रियाम् आशु शीघ्रं विधीयतां कर्मणि लोट् विधीयतां त्वयि जिह्मं कर्तुम् उद्यते त्वयि कपटम् आचरितुं कपटाचरणं कर्तुम् उद्युक्ते दुर्योधने तत्र इति तस्मिन् दुर्योधने यत् कर्तव्यं यत् योग्यम् अस्ति विधेयम् अस्ति तद् उत्तरं तादृशं कार्यम् आशु विधीयतां शीघ्रं क्रियतां यतः इति परप्रणीतानि वचांसि इति अर्थान्तरन्यासेन पूर्वोक्तं वाक्यं समर्थयति अन्यैः उक्तानि वचांसि सर्वाणि सङ्ग्रहणं कुर्वताम् अस्मादृशानां जनानां गिरः शब्दाः नो चेत् वाक्यानि केवलं प्रवृत्तिसाराः एव भवन्ति केवलं वार्तामात्र साराः भवन्ति एसेन्शियलि केवलम् एक न्यूस् एव भवति कार्यं कर्तुं किमपि प्रयोजनाय न भवति तद् भवतामेव भवति इति अर्थान्तरन्यासः अलङ्कारः अग्रे षड्विंशः श्लोकः इति रयित्वा गिरमात्तसत्क्रिये गतेऽथ पत्यौ वनसन्निवासिनां प्रविश्य कृष्णा सदनं महीभुजा तदा च चक्षेऽनुजसन्निधौ वचः इति ईरयित्वा गिरम् आत्तसत्क्रिये गते अथ पत्यौ वनसन्निवासिनां प्रविश्य कृष्णा सदनं महीभुजा तद् आचचक्षे अनुजसन्निधौ वचः इति पदविभागः वनसन्निवासिनां पत्यौ इति गिरम् ईरयित्वा आतसत्क्रिये गते सति सतिसप्तमी प्रयोगः वनेचरे गते सति यदा वनेचरः गतः तदा इति अर्थः. कीदृशे वनेचरे गते सति इत्युक्ते वनसन्निपत्यौ, पतिः इत्युक्ते हेड् इति अर्थः, हस्बेण्ड् इति अर्थः नास्ति. वनसन्निवासिनां राजा अस्ति सः वनेचरः. वनसन्निवासनौ वने ये निवसन्ति तेषां श्रेष्ठः पतिः अस्ति सः वनेचरः. तादृशे वनसन्निवासिनां पत्यौ गते सति. पुनः कीदृशे इत्युक्ते आप्तसत्क्रिये. आप्त इत्युक्ते प्राप्त इति अर्थः. प्राप्तसत्क्रियः अस्ति सः वनेचरः. किमर्थं सत्क्रियः तेन प्राप्तः इत्युक्ते युधिष्ठिरः एवं ब्राह्मणवेषं धृत्वा तत्र गत्वा विषयान् सङ्गृह्य उक्तवान् अस्ति इति कारणात् तस्मै उपायनानि ददाति युधिष्ठिरः. सत्क्रिया तदेव सत्क्रिया इति उपायनानि इति अर्थे. अतः आत्तसत्क्रियः प्राप्त उपायनः, प्राप्तपारितोषः सहस वनेचरः इति गिरम् ईरयित्वा प्राप्तसत्क्रियः इति नाम पूर्वोक्तैः श्लोकैः यथा उक्तं तथा उक्त्वा ओके दुर्योधनः कथं शासनं करोति इत्यादिकं सर्वं विषयम् इति गिरं वचः चेत् वाक्यम् उक्त्वा ईरयित्वा. ईरयति इत्युक्ते वदति इति अर्थः. ईरयित्वा उक्त्वा आत्तसत्क्रियः यदा वनेचरः गतः, आत्तसत्क्रिये गते सति, अथ अनन्तरं महीभुजा महीभुक् युधिष्ठिरः युधिष्ठिरेण, महीभुजा राज्ञा युधिष्ठिरेण कृष्णासदनम् इति अस्ति. अत्र कृष्णासदनम् इति पदद्वयेन स्वीकर्तुं शक्यते, नो चेत् कृष्णायाः सदनम् इति अपि अर्थः भवितुम् अर्थं स्वीकर्तुं शक्यते. कृष्णा इति द्रौपदी, महीभुजा सदनं प्रविश्य गृहं प्रविश्य अनुजसन्निधौ, अनुजानां सन्निधौ, अनुजानां सन्निधिः इत्युक्ते सामीप्यम् इति अर्थः. अनुजानां सकाशे तत् वचः, नाम तत् वचः किं वचः, वनेचरेण वनेचरेण उक्तं वचः. आचचक्षे उक्तं, महीभुजा आचचक्षे युधिष्ठिरेण उक्तं, राज्ञा युधिष्ठिरेण उक्तं, तत्र सम्बन्धः. सदनं प्रविश्य कृष्णा आचचक्षे इति, कृष्णा इति पदं महीभुजा कृष्णायाः सदनं प्रविश्य द्रौपद्याः गृहं प्रविश्य अनुजसन्निधौ अनुजानां सकाशे तद् वचः वनेचरेण उक्तं वचः आचचक्षे उक्तम् इति अर्थः अपि भवितुमर्हति. अर्थं स्वीकर्तुं शक्नुमः, नो चेत् महीभुजा राज्ञा युधिष्ठिरेण सदनं प्रविश्य गृहं प्रविश्य अनुजसन्निधौ अनुजानां सकाशे तत्वचः युधिष्ठिरे वनेचरेण उक्तं वचः कृष्णा आचचक्षे, महीभुजा कृष्णा आचचक्षे युधिष्ठिरेण द्रौपदी उक्ता इति अर्थः अर्थमपि स्वीकर्तुं शक्यते. अस्माकं सौकर्यं यथा भवतां पुस्तके अस्ति तथा कुर्वन्तु. कृष्णासदनं कृष्णायाः सदनम् इति तत्पुरुषसमासत्वेन भवितुमर्हति, नो चेत् कृष्णा सदनम् इति पदद्वयं कृत्वा अपि अर्थं वयं स्वीकर्तुं शक्नुमः. महीभुजा कृष्णा आचचक्षे द्वयमपि कर्मणि प्रयोगः एव. महीभुजा द्रौपद्याः सदनं प्रविश्य अनुजसन्निधौ तत् वचः आचचक्षे युधिष्ठ वनेचरस्य वाक्यम् उक्तम्. वनसन्निवासिनां पत्यौ इति गिरम् ईरयित्वा आत्तसत्क्रिये गते सति. वनवासिनां पतिः वनेचरः पूर्वोक्तप्रकारम् उक्त्वा प्राप्तसत्क्रियः प्राप्त उपायनः यदा गतः तदा युधिष्ठिरेण महीभुजा युधिष्ठिरेण सदनं प्रविश्य गृहं प्रविश्य अनुजानां सन्निधौ तत्वचः तेन उक्तम् अनेचरेण उक्तं वचः कृष्णा आचचक्षे द्रौपदी उक्ता अथवा महीभुजा युधिष्ठिरेण कृष्णायाः सदनं प्रविश्य कृष्णासदनं प्रविश्य अनुजसन्निधौ अनुजानां सकाशे तत्वचः वनेचर उक्तं वचः आचचक्षे उक्तम् आचचक्षे इत्युक्ते चक्षिङ् धातोः लिट् लकारः कर्मणि प्रयोगः अत एव महीभुजा आचचक्षे इति महीभुजा इति तृतीया विभक्त्याम् अस्ति महीभुजा उक्तम् इति अर्थः आचचक्षे इति कर्मणि प्रयोगः लिट् कर्मणि सरलः श्लोकः अग्रे गच्छामः सप्तविंशः श्लोकः निशम्य सिद्धिं द्विशतामपाकृतिः ततस्ततस्थ्या विनियन्तुमक्षमा नृपस्य मन्युव्यवसायदीपिनीः उदाजहारद्रुपदात्मजागिरः निशम्य सिद्धिं द्विषताम् अपाकृतिः ततः ततस्थ्याः विनियन्तुम् अक्षमा नृपस्य मन्युव्यवसायदीपिनीः उदाजहार द्रुपदात्मजा गिरः इदानीं द्रौपदी वक्तुम् आरभते तस्मात् युधिष्ठिरः सर्वम् उक्तवान् अनुजैः सह द्रौपद्याः सन्निधौ अपि सर्वं विषयं वनेचरेण उक्तं विषयं सर्वम् उक्तवान् इति ज्ञायते इदानीं द्रौपदी आरम्भं करोति एतान् विषयान् श्रुत्वा शत्रूणां सिद्धिः नाम सक्सेस् सम्यक् शासनं करोति इत्यादिकं विषयं सर्वं श्रुत्वा तस्याः कोपः जायते सा यथा युधिष्ठिरस्य कोपः भवति यथा युधिष्ठिरः कार्यं कर्तुमपि उद्युक्तः भवति तादृशं वाक्यम् इदानीं द्रौपदी वक्तुम् इच्छति स्म द्रौपद्या उक्तैः यत् प्रवक्ष्यते तैः युधिष्ठिरस्य कोपः अपि भवेत् तस्य कार्यं कर्तुम् आशु विधीयताम् इति वदति शीघ्रं कार्ये अपि सः प्रवर्तते इति युधिष्ठिरः प्रवर्तताम् शीघ्रं कार्ये अपि इति कृत्वा द्रौपदी तादृशान् शब्दान् रचित्वा वाक्यानि वदति द्रुपदात्मजा गिरः उदाजहार इति सामान्यवाक्यं द्रुपदात्मजा द्रौपदी गिरः वाक्यानि अथवा वाचः उदाजहार उक्तवती इति किं श्रुत्वा द्विषतां सिद्धिं निशम्य द्विषतां पूर्वमेव दृष्टवन्तः शत्रूणां सिद्धिं सफलतां निशम्य श्रुत्वा द्रौपदी द्रुपदात्मजा गिरः उदाजहार द्रौपदी वाक्यम् उक्तवती इति कीदृशी द्रौपदी विनियन्तुम् अक्षमा विनियन्तुं विनियमः इत्युक्ते कण्ट्रोल् इति अर्थः कण्ट्रोल् कर्तुम् अक्षमा असमर्था अदेव निरोद्धुम् इति अस्ति निरोद्धुम् अक्षमा किं निरोद्धुम् अक्षमा आसीत् शत्रूणां दुर्योधनादीनां सफलतां श्रुत्वा सा किमपि निरोद्धुम् अक्षमा आसीत् तत् किम् इत्युक्ते ततस्थ्याः अपाकृतिः ततः इति पदं तदनन्तरं तदनन्तरं नाम युधिष्ठिरः यथा सर्वान् विषयान् उक्तवान् तदनन्तरं ततस्थ्याः अपाकृतिः विनियन्तुम् अक्षमा ततस्थ्याः तत्र प्रवृत्ताः कुत्र यदा राज्यपालनं युधिष्ठिरादयः सभायाम् आसन् तत्र तस्याः दुःशासनेन निग्रहणं केशेषु दुःशासनस्य ग्रहणं वस्त्र अपहरणम् इत्यादीः इत्यादयः अपाकृतीः अपकाराः इति अर्थः एतत् सर्वम् अपाकृतिः विनियन्त अपाकृतिः इति इकारान्तः स्त्रीलिङ्गः अपाकृतिः इति द्वितीया विभक्तिः बहुवचनं ततस्थ्याः इति तत् विशेषणम् अस्ति ततस्थ्याः नाम दुर्योधनादिभ्यः शत्रुभ्यः प्राप्ताः इति अर्थः ततः ततस्थ्याः दुर्योधनात् प्राप्ताः अपाकृतीः वस्त्रापहरणरूप दुष्टकार्याणि विनियन्तुं निरोधुम् अक्षमा सोढुम् अक्षमा सा द्रौपदी गिरः उदाजहार। कीदृशाः गिरः? गिरः इति पदमपि द्वितीया विभक्तिः कर्मपदम् अत्र। द्रुपदात्मजा गिरः उदाजहार इति गिरः इति कर्मपदं। तस्य एकं विशेषणमस्ति कीदृशीः गिरः उदाजहार। सा उक्तवती इत्युक्ते मन्युव्यवसायदीपिनीः। मन्युः कोपः, व्यवसायः आक्षन् कार्यम्। एतद्वयमपि उद्दीपिनीः गिरः। यथा एतद्वयमपि उद्दीप्तं भवति तादृशं वचः उक्तवती। कस्य एतत् विषयस्य एतद्विषयद्वयस्य अपि उद्दीपनं भवेत् इत्युक्ते नृपस्य। अत्र नृपः इति युधिष्ठिरं सूचयति। युधिष्ठिरः इदानीं महान् शान्तः, स्वाभाविकतया एव सः शान्तः अस्ति। इदानीं किमपि कार्यं कर्तुमपि तस्य उद्यमः अपि नास्ति। अतः यथा युधिष्ठिरस्य कोपः, कोपस्य उद्दीपनं भवति, यथा युधिष्ठिरस्य कार्यकरणम् उद्दीप्तं भवति, तथा तादृशैः वचनैः सा स्वस्य अभिप्रायं सूचयति इति अर्थः। तादृशानि वचनानि सा उक्तवती इति। मन्युव्यवसायदीपिनीः गिरः, मन्युव्यवसायदीपिनी गीः इति द्वयोः अपि द्वितीया विभक्ति बहुवचनं। मन्युव्यवसायदीपिनीः गिरः, गीः गिरौ गिरः, गिरं गिरौ गिरः इति द्वितीया विभक्तिः बहुवचनं। एवं द्रुपदात्मजा द्रौपदी द्विषतां सिद्धिं निशम्य शत्रूणां सफलतां श्रुत्वा ततः तदनन्तरं ततस्त्याः दुर्योधनादिभ्यः शत्रुभ्यः प्राप्ताः अपाकृतीः अपकारान् सर्वान् विनियन्तुम् अक्षमा, निरोद्धुम् अक्षमा, सोढुम् अक्षमा सती नृपस्य मन्युव्यवसायदीपिनीः। युधिष्ठिरस्य कोपकार्यकरण उद्दीपकानि गिरः वचांसि उक्तवती। भावार्थं पठामः। अनेन श्लोकेन द्रौपद्याः उद्देशः तु युधिष्ठिरस्य कोपः कारणीयः, तस्य पौरुषस्य अपि वर्धनं करणीयं। नाम तस्य यथा सः कार्यं विधास्यति समनन्तरं तथा वक्तव्यम् इति एव तस्याः आशयः अस्ति। अत एव द्विषतां सिद्धिं निशम्य समनन्तरं सा शत्रूणां सफलतां श्रुत्वा किञ्चित् विविच्य अपि न उक्तवती। समनन्तरं सा वक्तुम् आरब्धवती, किन्तु तत् वेगपूर्वाणि वचनानि न आसन् इति अग्रे ज्ञायते। उदाजहार इति उत् आहृ धातु, हरति इति उदाहरति इति पदस्य लिट् लकारः उदाजहार। उक्तवती, उक्तवान्, उक्तवती इति अर्थः। भावार्थम् एकवारं पठामः। द्रौपदी शत्रुवृद्धिसूचकानि वनेचर उक्तानि वाक्यानि धर्मराजात् अशृणोत्। तदेव सिद्धिं, द्विषतां सिद्धिं निशम्य शत्रुवृद्धिसूचकानि, संवृद्धिसूचकानि वचांसि वनेचरेण यानि उक्तानि तानि श्रुत्वा, तानि सा श्रुतवती। सा कस्मात् श्रुतवती? युधिष्ठिरात् श्रुतवती। सा स्वकेश अपकर्षणादि अपकाराणां प्रतिकारं कर्तुम् एवं रीत्या असम्भवम् इति निश्चिनोति स्म इति। सा निश्चितवती, निश्चितवती इति। स्वेन अनुभूतानां अपकाराणां प्रतिक्रियां कर्तुम् एवं रीत्या असम्भवं। नाम सामान्यरीत्या सा वदति चेत् तस्य अपकारान् कर्तुं युधिष्ठिरः शीघ्रं कार्यं न विधास्यति, शीघ्रं कार्यं कर्तुं न प्रवर्तेत इति मत्वा सा द्रौपदी कीदृशानि वचांसि वदति इत्युक्ते, अतः सा धर्मराजस्य क्रोधं पौरुषं च संवर्ध्य प्रतिकार उद्यमाय तं प्रेरयितु कामा एवं वक्तुं उपचक्रमे आरब्धवती इति अर्थः उपचक्रमः इत्युक्ते आरब्धः इति तस्य पौरुषम् अपि यथा संवर्धनं पौरुषस्य संवर्धनं यथा भवति तस्य कोपस्य संवर्धनं यथा भवति तथा तेन सह प्रतिकार उद्यमार्थं शीघ्रं कार्यं करोति तस्य प्रति दुर्योधनस्य प्रतीकारं कर्तुम् अतः तादृशेन वचनेन युधिष्ठिरं प्रेरयितुं कामयते स्म द्रौपदी एवं वक्तुं सा उपचक्रमे सामान्यवचनैः वदति चेत् युधिष्ठिरस्य कोपः वा तस्य उद्योगः वा उद्दीप्तः न भवति इति ज्ञात्वा एव द्रौपदी एतादृशाणि वचांसि वक्तुम् आरम्भं कृतवती आरब्धवती कीदृशानि वचांसि सा उक्तवती इति अग्रे पश्यामः अष्टाविंशतितमं श्लोकं पठामः भवादृशेषु प्रमदा जनोदितं भवत्यधिक्षेप इवानुशासनं तथापि वक्तुं व्यवसाययन्ति मां निरस्तनारी समया दुराधयः भवादृशेषु प्रमदा जनोदितं भवति अधिक्षेपः इव अनुशासनं तथापि वक्तुं व्यवसाययन्ति मां निरस्तनारी समयाः दुराधयः भवादृशेषु प्रमदाजन उदितम् अनुशासनम् अधिक्षेपः इव भवति इति एकं वाक्यं द्रौपदी किं वदति भवादृशेषु जनेषु नाम युधिष्ठिरसदृशेषु जनेषु युधिष्ठिरः तु सामान्यः न महान् पण्डितः अस्ति धर्मशास्त्रं जानाति एवं त्वादृशेषु पण्डितेषु प्रमदाजन उदितं प्रमदा इत्युक्ते महिला इति अर्थः महिलाजनैः महिलाभिः उक्तम् अनुशासनम् अत्र उपदेशम् अतिक्षेपः इव भवति तिरस्कार्यः इव भवति कारणं किं सामान्यजनाः अपि महिलानाम् उपदेशं श्रोतुं न प्रभवन्ति भवादृशाः पण्डिताः मादृशाणां महिलानाम् उपदेशं कथं श्रोतुं प्रभवन्ति इति कारणम् अत एव अत्र प्रमदाजन उदितम् इति पदस्य प्रयोगः अस्ति प्रमदा इत्युक्ते महिला इति अर्थः प्रसादेन माद्यते इति प्रमदा इति प्रसादेन माद्यते इति प्रमदा इति भवति कान्ता सम्मिततया उपदेशयिते इति मम्मटाचार्येण काव्यप्रकाशे यथा उक्तं कान्ता चेत् यथा काचित् महिला मोहम् उत्पाद्य उपदेशं करोति तद्वत् उपदेशति काव्यम् इति उच्यते स प्रमदाजनः कान्ता इत्युक्ते मोह उत्पादनार्थम् एव इति तद् तस्मिन् काले इदानीं तस्मिन् काले एवम् एतादृशः भावः आसीत् अतः अत एव प्रमदा इति पदस्य प्रयोगः प्रमदा चेत् प्रसादेन माद्यते मोहं प्रापयति अतः तया उदितं सर्वम् उपदेशसंहितं नैव भवति इति पुरुषाः चिन्तयेयुः इति कृत्वा भवादृशेषु पण्डितेषु जनेषु मादृशानां प्रमदाजनानाम् उपदेशः तु तिरस्कारयोग्यः स्यात् अतिक्षेपः इव भवति इति वदति अधिक्षेपः नाम तिरस्क्रिया इव भवति भवादृशेषु त्वादृशेषु युधिष्ठिरसदृशेषु प्रमदाजन उदितं महिलाजनैः उदितम् इत्युक्ते उक्तम् अनुशासनम् उपदेशः अधिक्षेपः इव भवति तिरस्कारविषयः इव भवति तथापि यद्यपि अहं जानामि भवन्तः मम वचनानि न शृणुयुः न अङ्गीकुर्युः तथापि दुराधयः मां वक्तुं व्यवसाययन्ति दुष्टाः आधयः दुराधयः आधिः इत्युक्ते मनोव्यथा इति अर्थः मनस्सम्बन्धः क्लेशः आधिः इति उच्यते शरीरसम्बन्धक्लेशः व्याधिः इति उच्यते दुराधयः दुष्टाः आधयः मनक्लेशाः मनोव्यथाः मां वक्तुं व्यवसाययन्ति मां वक्तुं प्रेरयन्ति कीदृशाः दुराधयः इत्यस्य एकं विशेषणं निरस्तनारीसमयाः समयः इत्युक्ते कट्टुकोपु इत्यर्थः, कोड् आफ़् कोण्डक्ट् इति वदामः किल. नारीसमयः इत्युक्ते नारीणां समाचाराः, स्त्रीसमाचाराः, शीलनतारूपस्त्रीसमाचारः, कोड् आफ़् कोण्डक्ट् रूपस्त्रीसमाचाराः, स्त्रीणां कोड् आफ़् कोण्डक्ट् इति अर्थः. अत एव अर्थात्रे शीलनतारूपस्त्रीसमाचाराः, स्त्रीविषयाः, तत्सर्वं निरस्ताः, त्याजिताः स्त्रीसमाचाराः, तादृशाः आधयः, दुःखाः, मनोव्यथाः मां वक्तुं प्रेरयन्ति. आरण्यकाण्डे अपि सीता समानं वदति रामं प्रति, स्त्री चापलात् एतत् उदाहृतं मे, धर्मं च वक्तुं तव कः समर्थः इति. अहं स्त्री चापलात् एतत् सर्वं वदामि, धर्मं वक्तुं भवतः तु धर्मम् उपदेष्टुं कः समर्थः अस्ति, भवानेव सर्वं जानाति इति समानरीत्या. किन्तु द्रौपद्याः वचनम् इतोपि कठोरं वचनम् अस्ति, कारणं यावत् कष्टं द्रौपदी अनुभूतवती तावत् कष्टं सीतया न अनुभूतं किल. इतोपि द्रौपद्याः महान्ति कष्टानि आसन्, अतः तस्याः वचनेषु इतोपि कठोरत्वं दृश्यते. किन्तु यदा पतिः धर्ममार्गात् विचलितः भवति तदा पत्न्या उपदेशः करणीयः इति धर्मविचारे उक्तमस्ति. रामः अपि सीतायाः वचनम् अङ्गीकरोति. धर्माकूतम् इति ग्रन्थः अस्ति, तत्र स्त्रीणां धर्मः यत्र उच्यते तत्र स्त्रीभिः उपदेशः करणीयः इति अस्ति. तदा तदा यदा पतिः धर्ममार्गात् विचलितः स्यात् तदा इति अस्ति. तदेव अत्र द्रौपदी अपि करोति, निरस्तनारीसमयाः दुरादयः मां वक्तुं व्यवसाययन्ति. त्याजिताः शीलनतारूपस्त्रीसमाचाराः, सर्वाः अपि त्याजिताः, सर्वे अपि त्याजिताः सन्ति, तादृशः दुराधयः अस्ति मम, दुःसहः वेदना अस्ति, ताः वेदनाः मां वक्तुं प्रेरयन्ति. भवादृशेषु पण्डितेषु प्रबदाचनोदितं स्त्रीजनैः उक्तम् अनुशासनं, स्त्रीजनैः उक्तः उपदेशः तिरस्कारविषयः इव भवति, अधिक्षेपः इव भवति. तथापि तिरस्तनारीसमयाः त्यक्तस्त्रीस्वभावाः मम दुराधयः, त्यक्तस्त्रीस्वभावः, स्त्रीणां स्वभावं त्यक्त्वा मम विद्यमानाः मम मानसिकाः व्यथाः मां वक्तुं प्रेरयन्ति. भावार्थः एवं भवति, भवादृशान् पण्डितान् आज्ञातुम् आज्ञापयितुं स्त्रीणां न युक्तं, तत् तिरस्कारसदृशं भवति. भवतां व्यवहारेषु मम सम्बन्धः न युक्तं, तथापि मम अवमानेन सञ्जनितमनोव्यथाभिः प्रेरिता अहं वक्तुं साहसं करोमि. अवमानेन सञ्जनितमनोव्यथाः, मम मनोव्यथायाः कारणं तदा अनुभूतः अवमानः च, अवमानेन सञ्जनितमनोव्यथाः सन्ति, ताभिः मनोव्यथाभिः अहं प्रेरिता अस्मि वक्तुम्.